ओम नमो भगवते वासुदेवाय। अथ सप्तमोऽध्यायः। ब्रह्मोवाच यत्रोद्यत क्षितितलोद्धरणाय बिभ्रत् क्रौडीं तनुं सकलयज्ञमयीमनन्तः। अन्तर्महार्णव उपागतमादिदैत्यं तं दंष्ट्रयाद्रिमिव वज्रधरो ददार। जातो रुचेरजनयत् सुयमान् सुयज्ञ आकूतिसूनुरबरानस दक्षिणायाम्। लोकत्रयस्य महती महरद्यदार्तिम् स्वायम्भुवेन मनुना हरिरित्यनूक्तः। यज्ञे च कर्दम गृहे द्विजदेवहूत्याम् स्त्रीभिः समम् नवभिरात्मगतिम् स्वमात्रे। ऊचेययात्मशमलम् गुणसङ्गपङ्कमस्मिन्विधूय कपिलस्य गतिम् प्रपेदे। अत्रेरपत्यमभिकाङ्क्षत आहतुष्टो दत्तो मयाहमिति यद्भगवान् स दत्तः। यत्पादपङ्कज परागपवित्रदेहा योगर्धिमा पुरुभयीम् यदुहैहयाद्याः। तप्तम् तपो विविधलोकशिशिक्षया मे आदौ सनात् स्वतपसः स चतुःसनोऽभूत्। प्राक्कल्पसम्प्लव विनष्टमिहात्मतत्त्वम् सम्यग् जगादमुनयो यतचक्षतात्मन्। धर्मस्य दक्ष दुहितर्यजनिष्टमूर्त्याम् नारायणो नर इति स्वतप प्रभावः। दृष्ट्वात्मनो भगवतो नियमावलोपम् देव्यस्त्वनङ्गपृतना घटितुम् न शेकुः। कामम् दहन्ति कृतिनो ननुरोषदृष्ट्या रोषम् दहन्तमुतते न दहन्त्य संयम्। सोऽयम् यदन्तरमलम् प्रविशन् बिभेति कामः कथम् नु पुनरस्य मनश्रयेत। विद्धः सपत्नितपत्रिभिरन्ति राज्ञो बालोऽपि सन्नुपगतस्तपसेवनानि। तस्मादाध्रुवगतिम् गृणते प्रसन्नो दिव्यास्तुवन्ति मुनयो यदुपर्यधस्तात्। यद्वेनमुत्पथगतम् द्विजवाक्यवज्र विप्लुष्टपौरुषभगम् निरये पतन्तम्। त्रात्वार्थितो जगति पुत्रपदम् च लेभे दुग्धा वसूनि वसुधा सकलानि येन। नाभेरसा वृषभ आस सुदेवि सूनुर्यो वैचचार समदृग्जडयोगचर्याम्। यत्पारमहंस्य मृषयः पदमामनन्ति स्वस्थः प्रशान्तकर्णः परिमुक्तसङ्गः। सत्रेममास भगवान् हयशीरसाथो साक्षात् स यज्ञपुरुषस्तपनीयवर्णः। छन्दोमयो मखमयोऽखिल देवतात्मा वाचो बभूवुरुषति स्वशतोऽस्य नस्तः। मत्स्यो युगान्तसमये मनुनोपलब्धः क्षोणीमयो निखिलजीवनिकायकेतः। विस्रंसितानुरुभये सलिले मुखान्मे आदाय तत्र विजहारः वेदमार्गान्। क्षीरोदधावमरदा नवयूथपानामुन्मथ्नताममृतलब्धयाद्युदेवः। पृष्ठेन कच्छपवपुर्विदधारगोत्रम् निद्राक्षणो त्रिपरिवर्तकषाणकण्डूः। त्रैविष्टपोरुभयः स नृसिंहरूपम् कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम्। दैत्येन्द्रमासु गदयाभिपतन्तमारा दूरौ निपात्य विदधारनखैः स्फुरन्तम्। अन्तःसरस्युरुबलेन पदे गृहीतो ग्राहेण यूथपतिरम्बुजहस्त आर्तः। आहेदमादिपुरुषाखिल लोकनाथ तीर्थश्रवश्रवणमङ्गलनामधेय। श्रुत्वा हरिस्तमरणार्थिनमप्रमेयश्चक्रायुधः पतगराजभुजादिरूढः। चक्रेण नक्रवदनम् विनिपाट्य तस्माद्धस्ते प्रग्रह्य भगवान् कृपयोज्जहार। ज्यायान् गुणैरवरजोऽप्यदिते सुतानाम् लोकान् विचक्रम इमान् यदथादि यज्ञः। क्ष्माम् वामनेन जगृहे त्रिपदच्छलेन याच्यामृते पथि चरन् प्रभुभिर्न चाल्यः। नार्थो बलेरयमुरुक्रमपादशौच मापशिखा धृतवतो विबुधाधिपत्यम्। यो वै प्रतिश्रुतमृते न चिकीर्षदन्यदात्मानमङ्गशिरसा हरयेऽभिमेने। तुभ्यम् च नारदभृशम् भगवान् विवृद्ध भावेन साधु परितुष्ट उवाच योगम्। ज्ञानम् च भागवतमात्मसतत्त्वदीपम् यद्वासुदेव सरणा विदुरञ्जसैव। चक्रम् च दिक्ष्व विहतम् दशसुस्वतेजो मन्वन्तरेषु मनुवंशधरो बिभर्ति। दुष्टेषु राजसुदमम् व्यदधात् स्वकीर्ति सत्ये त्रिपृष्ठौषतीम् प्रथयंश्चरित्रैः। धन्वन्तरिश्च भगवान् स्वयमेव कीर्तिर्नाम्नान्द्रिणाम् पुरुरुजाम् रुज आशुहन्ति। यज्ञे च भागममृतायुरवावरुन्ध आयुश्च वेदमनुषाश्चवतीर्य लोके। क्षत्रम् क्षयाय विधिनोपभृतम् महात्मा ब्रह्मदृगुज्झितपथम् नरकार्तिलिप्सु। उद्धन्त्य सावनिकण्टकमुग्रवीर्यस्त्रिः सप्त कृत्वा रुधार परश्वधेन। अस्मत्प्रसाद सुमुखः कलया कलेश इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे। तिष्ठन् वनम् सदयितानुजाविवेश यस्मिन् विरुध्य दशकन्धर आर्तिमार्च्छत्। यस्मादुधतिरु डभयाङ्गवे पो मार्गम् सपद्य रिपुरम् हरवद्यधक्षोः दूरे सुहृन्मथितरोष शुषोण दृष्ट्या तातप्यमानमकरो रगनक्रचक्रः वक्षस्थलस्पर्श रुग्णमहेन्द्रवाह दन्तैर्विडम्बितककुब्जुस ऊढहासम् सद्यो सुभिः सह विनेष्यति दार हर्तुर्विस्फूर्जितैर्धनुषौच्चरतोऽधि सैन्ये भूमे सुरे तरवरूथ विमर्दिताया क्लेशव्ययाय कलया सित कृष्णकेशः जातः करिष्यति जनानुपलक्ष्य मार्गः कर्माणि चात्ममहिमोपनिबन्धनानि तोकेन जीवहरणम् यदुलूकिकायास्त्रैमासिकस्य च पदा शकटोपवृत्तः यदृङ्गतान्तर्गतेन दिवि स्पृशोर्वा उन्मूलनम् त्वितरथार्जुनयोर्न भाव्यम् यद्वै व्रजे व्रजपशून् विशतोऽयपीथान् पालांस्त्वजीव यदनुग्रह दृष्टिवृष्ट्या तच्छुद्धयेति विषवीर्य विलोलजिह्वमुच्चाटयिष्य दुरगम् विहरन् हृदिन्याम् तत्कर्म दिव्यमिव यन्निशनिश्चयानम् दावाग्निना शुचिवने परिदह्यमाने उन्नेष्यति व्रजमतो वसितान्तकालम् नेत्रेऽपि धाय सबलो नधिगम्य वीर्यः गृह्णीत यद् यदुपबन्धममुष्य माता सुलभम् सुतस्य न तु तत्सदमुष्य माति यज्जृम्भतोऽस्य वदने भुवनानि गोपी संवीक्ष्य सङ्कितमना प्रतिबोधितासीत् नन्दम् च मोक्षति भयाद्वरुणस्य पाशात् गोपान् बिलेसु पिहितान् मयसूनुना च अन्यापृतम् निशिशयानमतिश्रमेण लोकम् विकुण्ठमुपनेष्यति गोकुलम् स्म गोपैर्मखे प्रतिहते व्रजविप्लवाय देवेऽभि वर्षति पशून् कृपया रिरक्षुः धर्तोच्छिलीन्द्रमिव सप्त दिनानि सप्त वर्षो महीद्रमनघैककरे सलीलम् क्रीडन् वने निशिनिशा कररश्मि गौर्याम् रासोन्मुखः कलपदायत मूर्छितेन उद्दीपित स्मर रुजाम् व्रजभृद्वधूनाम् हर्तुर्हरिष्यति शिरोधन दानुगस्य ये च प्रलम्ब खरदर् दुरकेश्यरिष्ट मल्लेभ कंस यवना कुज पौण्ड्रकाद्याः अन्ये च साल्व कपिबल्वल दन्त वक्त्र सप्तोक्ष संबर विदुरथ रुक्मि मुख्याः ये वामृधे समिति शालिन आत्तचापाः काम्बोज मत्स्य कुरुकैकय सृञ्जयाद्याः यास्यन्त्य दर्शनमलम् बलपार्थ भीम व्याजाह्वयेन हरिणा निलयम् तदीयम् कालेन मीलित धियामवमृष्यन्नृणाम् स्तोकायुषाम् स्वनिगमो बत दूरपारः आविर्हितस्त्वनुयुगम् स हि सत्यवत्याम् वेदद्रुमम् विटपसो विभजष्यति स्म देवद्विषाम् निगमवर्त्मनि निष्ठितानाम् पूर्भिर्मयेन विहिताभिर्दृश्यतूर्भिः लोकान् घ्नताम् मतिविमोहमतिप्रलोभम् वेषम् विधाय बहुभाष्यत औपधर्म्यम् यर्यालयेष्वपि सताम् न हरे कथा स्युः पाखण्डिनो द्विजजना वृषलान्द्रिदेवाः स्वाहा स्वधा वसदिति स्म गिरो न यत्र शास्ता भविष्यति कलेर्भगवान् युगान्ते सर्गे तपोहमृषयो नवये प्रजेशाः स्थाने च धर्ममखमन्वमरावनीशाः अन्ते त्वधर्म हरमन्युवशासुराद्या माया विभूतय इमा पुरुषक्तिभाजः विष्णोर्नुवीर्यगणनाम् कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विमुमे रजांसि च स्कम्भयः स्वरम् हसा स्खलता त्रिपृष्ठम् यस्मात् त्रिसाम्य सदना दुरुकम्पयानम् नान्तम् विदाम्यहममी मुनयोग्रजास्ते मायाबलस्य पुरुषस्य कुतो परेये गायन् गुणान् दशशतानादिदेवः शेषोऽधुनापि समवस्यति नास्य पारम् येषाम् स एव भगवान् दययेदनन्तः सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् ते दुस्तरामतितरन्ति च देवमायाम् नैषाम् ममाहमिति धी स्वसृगालभक्ष्ये वेदाहमङ्गपरमस्य हि योगमायाम् यूयम् भवश्च भगवानथ दैत्यवर्यः पत्नीमनोः स च मनुश्च तदात्मजाश्च प्राचीनबर्हिर्रिभुरङ्गौ तद्ध्रुवश्च इक्ष्वाकुरैलमुचुकुन्दविदेहगाधिरघ्वम्बरीषसगरा गयनाहुषाद्याः मान्धात्रलर्कशतधन्वनुरन्ति देवा देवव्रतो बलिरमूर्तरयो दिलीपः सौभर्युतङ्क शिबिदेवलपिप्पलाद सारस्वतोद्धव पराशर भूरिषेणाः येन्ये विभीषण हनुमधुपेन्द्र दत्त पार्थाष्टिषेण विदुरश्रुतदेववर्याः ते वै विदन्त्यति तरन्ति च देवमायाम् स्त्रीशूद्रहूणशबरा अपि पापजीवाः यद्यद्भुतक्रमपरायणशीलशिक्षास्तिर्यग्जना अपि किमु श्रुतधारणा ये शश्वत्प्रशान्तमभयम् प्रतिबोधमात्रम् शुद्धम् समम् सदसतः परमात्मतत्त्वम् शब्दो न यत्र पुरुकारकवान् क्रियार्थो मायापरैत्यभिमुखे च विलज्यमाना। तद्वै पदम् भगवतः परमस्य पुंसो ब्रह्मेति यद्विदुरजस्र सुखम् विशोकम्। सध्र्यं नियमयतयो यमकर्तहेतिम् जय्योस्वरादिवनिपानखनित्रमिन्द्रः। सश्रेयसामपि विभुर्भगवान् यतोऽस्य भावस्वभावविहितस्य सतप्रसिद्धिः। देहे स्वधातु विगमे नु विशीर्यमाणे व्योमेव तत्र पुरुषो न विशीर्यते चः। सोऽयं तेऽपि हितस्तात भगवान् विश्वभावनः। समासेन हरेर्नान्यदन्यस्मात् सदसच्च यत् इदम् भागवतम् नाम यन्मे भगवतोदितम्। सङ्ग्रहोऽयम् विभूतीनाम् त्वमेतद्विपुलीकुरु। यथा हरौ भगवति नृणाम् भक्तिर्भविष्यति। सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय। मायाम् वर्णयतोमुस्य ईश्वरस्यानुमोदतः। शृण्वतः श्रद्धया नित्यम् माययात्मानमुह्यति। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वितीयस्कन्धे ब्रह्मनारदसंवादे सप्तमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्। यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।